गणानात्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमं जेशराजं ब्रह्मणा ब्रह्मणस्पत आनस्विन्वल्लो दिविस्सीदसागनं प्रणोतीर्हि सरस्वती वाजेभिर्वाजिनीवति नाम वित्रवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः
हरिः सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम् विश्वं नारायणं देवमक्षरं परमं पदं विश्वतः परमान्नित्यं विश्वं नारायणगुं हरिं विश्वमेवेदगुं सर्वविश्वमुपजीवति पतिं विश्वस्यात्मेश्वरगुं शाश्वतगुं शिवमच्युतम् नारायणं महाज्ञेयं विश्वात्मानं परायणं नारायणपरो ज्योतिरात्मा नारायणः परः नारायणपरं ब्रह्मतत्त्वं नारायणः परः नारायणपरो ध्याता ध्यानं नारायणः परः यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः अनन्तमव्ययं कविगुं समुद्रेऽन्तं विश्वशम्भुवं पद्मकोशप्रतीकाशगुं हृदयं चाप्यदोमुखम् अधो निष्ट्यावितस्त्यान्तेनाभ्यां परितिष्ठति ज्वालमालाकुलं भाति विश्वस्यायतनं महत् सन्ततगुं शिलाभिस्तुलं भत्या कोशसन्निभं तस्यान्ते सुशिरगुं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः सोग्रभुग्विभजन्तिष्ठन्नाहारमजरक्कविः तिर्यगूर्ध्वमदश्यायीरश्मयस्तस्य सन्तता सन्तापयति स्वं देहमापादतलमस्तकः तस्य मध्ये अन्विषिका अणीयोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्ताद्विद्युल्लेकेव भास्वरा नीवारशूकवत्तन्वी पीता वा सत्यनूपमा तस्या आशिकाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्मः स शिवः स हरिसेन्द्रः सोऽक्षरः परमस्वराट् ऋतगुं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ शान्ति शान्ति शान्तिः